नमो नमः
सर्वेभ्यः. ॐ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः.
धन्यवादः. नमो नमः सर्वेभ्यः. अस्तु पापाजी, प्रणाम. श्रूयते वा पापाजी? पापाजी सुनाई दे रहा आपको? की आवाज नहीं आ रही. आई कांट अनम्यूट यू आल्सो. अस्तु अस्तु, अद्य किं कुर्मः? पुटसंख्या अभ्यासपुस्तके एव अस्तु. एकम् एतां कथां पठतु. तत् वयं पठितवन्तः वा? सम्पूर्णकथां न पठितवन्तः इति मन्ये, सत्यं वा?
न भगिनि, अहं पठितवन्तः वयं.
अस्तु
सम्पूर्णतया
पठितवन्तः.
अस्तु अस्तु, स्वस्य वाक्यैः स्वस्यैः वाक्यैः कथाम् एकवारं विवृणोतु भगिनी. सुधा भगिनी आरम्भं करोतु, तदनन्तरं शैलजा भगिनी अन्तिम करोतु. हा,
कश्चित् बालकः अस्ति, तस्य नाम सुधीरः. एकदा सुधीरः नगरं गच्छति, शिरस्त्राणि क्रीणाति. शिरस्त्राणि क्रीणार्थं नगरं गच्छति. शिरस्त्राणं क्रीणाति, तेषां विक्रयणार्थं नगरं गच्छति. मार्गे एकम् आरण्यम् अस्ति. सुधीरः श्रान्तः भवति, सः वृक्षस्य अधः उपविशति. पेटिकां पार्श्वे स्थापयति.
कथम् आयाति तत्र? कस्य पेटिकां?
शिरस्त्राणि पेटिकां.
शिरस्त्राणि पेटिकां तु न, विभक्तिरूपं किं तत्र?
शिरस्त्र
पेटिकायां
शिरस्त्राणि सन्ति. सा पेटिकायां पार्श्वे स्थापयति.
तदनन्तरं
निद्रां करोति. तत्र अपि केचन वानराः सन्ति. एकः वानरः सुधीरस्य समीपम् आगच्छति. एकः वानरः सुधीरस्य समीपम् आगच्छति. सः वानरः पेटिकां पश्यति, उद्घाटयति.
कीदृशपदं तत्र एकवारं स्मारयतु. जिज्ञासा आकारान्त वा? कीदृशपदं जिज्ञासा एकनिमिष जिज्ञासा अदं किं तु विस्मरामि एकनिमिष जिज्ञासा चि जिज्ञासेन वदतु जिज्ञासेन
जिज्ञासेन
वानरः
जिज्ञासेन वानरः
पेटिकाम्
उद्घाटयति उद्घाटयति सः एकं शिरस्त्रं गृह्णाति तदनन्तरं शिरसि धारयति पुनः वृक्षस्य उपरि गच्छति तत्र उपविशति
अस्तु धन्यवादः भगिनी
धन्यवादः
हा शैलजा भगिनी समाप्तं करोतु भगिनी कथाम्
आं भगिनि
स्वस्यैः वाक्यैः हा
एकः वानरः शिरसे धारयति वृक्षस्य तदनन्तरं वृक्षस्य उपरि गच्छति तदनन्तरं अन्ये वानराः पश्यन्ति शिरस्त्राणं पश्यन्ति स्पर्शन्ति अपि शिरस्त्राणम् इच्छन्ति
हा इत्युक्ते किं पश्यन्ति
प्रथमवानरस्य धारणेन पश्यन्ति
धारणं पश्यन्ति
तदनन्तरम् अपि ते अपि शिरस्त्राणम् इच्छन्ति शिरस्त्राणि इच्छन्ति
उत्तमं तदनन्तरं
एकः वानरः समीपे आगच्छन्ति शिरस्त्राणि धारयन्ति
एकः वानरः अस्ति चेत्
एकः वानरः एक्स्क्यूस् मी भगिनि तदनन्तरं अन्यवानराः एकं वानरः समीपे आगच्छन्ति शिरस्त्राणि वृक्षस्य अधः आगच्छन्ति सुधीरस्य समीपे वृक्षस्य अधः भागे आगच्छन्ति शिरस्त्राणि धारयन्ति तदनन्तरं वृक्षे उपविशन्ति
mm.
अपि तदनन्तरं सुधीरः जागृतः भवति. अपि पश्यन्ति अपि शिरस्त्राणं न न पश्यन्ति. नास्ति चेत् वृक्षस्य सः नास्ति चेत् वानरान् पश्यति.
इतस्ततः इतस्ततः इत्युक्ते
इदानीम् इस् आल्सो हियर् एण्ड् देर् भगिनि.
इदानीम् इत्युक्ते अधुना
अधुना हियर् आफ्टर् इस् इदानीं
हियर् एण्ड् देर् हियर् एण्ड् देर् सर्वाणि. सुधीरः जागृतः सुधीरः इतस्ततः पश्यति. शिरस्त्राणि कुत्र सन्ति इति
मनसि
इतस्ततः
सुधीरः जागरितः तदनन्तरं इतस्ततः तदनन्तरं शिरस्त्राणि नास्ति चेत् इतस्ततः पश्यति पश्यति सूचयति. सुधीरः सूचयति शिरस्त्राणि तत्र सन्ति. सः दण्डं दर्शयति.
इतस्ततः पश्यति तदनन्तरं किम् अभवत्?
तदनन्तरं
सुधीरः वृक्षस्य उपरि
तदनन्तरं वृक्षस्य उपरि वानराः पश्यति सुधीरः वानरान् पश्यति. तदनन्तरं दण्डः दर्शयति. एकं दण्डं दर्शयति पश्यति. सुधीरः तदनन्तरं एकम् उपायं चेत् उपायं करोति. सुधीरः शिलाखण्डं क्षिपति.
सुधीरः दण्डं दर्शयति तदनन्तरं किम् अभवत्?
वानराः वृक्षशाखाः दर्शयन्ति.
इत्युक्ते किम्?
ऐ थिङ्क् दे हि सी लैक् मङ्कीस् आर् आन् द ब्राञ्चेस् आफ् ट्री.
न अत्र किम् अभवत्? सुधीरः दण्डं दर्शयति इत्युक्ते किम्?
हि सीस् वन् स्टिक्.
न दर्शयति इत्युक्ते
shows. Okay, right bhagini. Darshayati is showing.
इत्युक्ते किम्? एकं दण्डम् अस्ति तत्र स्वीकृत्य वानरान् दृश्यति. दण्डं दृश्यति तत् तदनन्तरं किम् अभवत्? वानराः किं करोति? किं
वानराः वृक्षशाखाः दर्शयन्ति. So they show again these branches of a tree.
Havanaraha api.
So they do the same thing what they replicate same what Sureshasya is doing. Sureshaha is doing. So
Havanaraha api vrikshashakhan वृक्षशाखाः, शाखाः तु आकारान्त स्त्रीलिङ्गपदमस्ति, वृक्षशाखाः दर्शयन्ति
दर्शयन्ति.
तदनन्तरं किम् अभवत्?
तदनन्तरं सुधीरः शिलाखण्डं क्षिपति, सो हि थ्रोस् अवे द हिस् हेल्मेट् ऐ मीन् हिस् केप् अण्ड् देन् वानराः तदनन्तरं
न न न न तत् पूर्वं किम् अभवत्? प्रथमतया तु दण्डं दर्शयति,
प्रथमतया तु दण्डं
वानराः अपि अनुवर्तन्ते. तदनन्तरं किम् अभवत्? सुधीरः किम् अकरोत्? सः
शिलाखण्डं क्षिपति.
तदनन्तरं किम् अभवत्?
तदनन्तरं वानराः फलानि क्षिपन्ति.
फलानि क्षिपन्ति. तदनन्तरं सुधीरः किम् अवगतम्?
सो वानराः अनुकरणशीलाः इति अनुसारे करोति, वानराः कुर्वन्ति. सो इति उपायम् अस्ति चेत् सुधीरः स्वकीयं शिराखण्डं शिरस्त्रं भूमौ क्षिपति.
उत्तमम् उत्तमं. तदनन्तरं
तदनन्तरं सर्वे वानराः शिरस्त्राणि क्षिपन्ति.
सर्वे वानराः शिरस्त्राणि कुत्र क्षिपन्ति? भूमौ क्षिपन्ति. तदनन्तरं
सुधीरः वाट् इस् दिस् भगिनि, हौ टु प्रोनौन्स् इट्, सर्वाणि संख्या सङ्गृहाति.
सर्वाणि शिरस्त्राणि सङ्गृहीत्य
सर्वाणि सो टुगेदर् इस् इट् द सेम् वन् भगिनि? सुधीरः सर्वाणि सङ्गृहाति, शीघ्रम् अन्यत्र गच्छति. सो हि टेक्स् आल् द हि कलेक्ट्स् आल् द क्याप्स् अण्ड् देन् हि गोस् अवे इमीडियट्लि.
सुधीरः सर्वाणि शिरस्त्राणि सङ्गृह्णाति.
तदनन्तरं शीघ्रं गच्छति, अन्यत्र गच्छति.
अन्यत्र गच्छति. उत्तमं, तदेव अवगतम्. उत्तमं,
सुन्दरं.
धन्यवादः धन्यवादः
धन्यवादः.
उत्तमं. पापाजी, आपकी आवाज आ रही क्या? अभी ना श्रूयते पापाजी.
Maybe he's not at the desk, Bhagini.
No, I don't think he has the control in his hand. Astu. Astu, Bina Bhagini, swagatam. Bina Bhagini.
Dhanyavad.
Puta Sankhya Kim Sudha Bhagini?
Chatvarimshat.
तमे पुटे अभ्यासः पठतु भगिनि.
यू आर टेलिंग मी भगिनि?
पठतु एकवारम्.
आई डोंट हैव एनीथिंग, नो मैटर.
सुधा भगिनि पठतु.
आम् भगिनि. कथायां स्थूलाक्षरैः दृश्यमानानि क्रियापदानि भूतकालरूपेण परिवर्तयतु.
इत्युक्ते किम्? लघुवाक्यं रचयतु भगिनि.
आं भगिनि. कथायां केचन
कर्तृपदं किं? कर्तृपदं किं? क्रियापदं किं?
क्रियापदं परिवर्तयतु, कर्तृपदं भवान् भवती परिवर्तयतु.
भवान् भवती परिवर्तयतु. अस्तु, तदनन्तरं कर्मपदम्?
कर्मपदं कथायां.
कथायां विभक्तिरूपं किम्?
कथायां न कथायां
कथा आकारान्त रमावत् अस्ति
कथायां सप्तमी आकारान्त रमावत् सप्तमी विभक्ति अस्ति
कर्मपदं किं तत्र किं परिवर्तयतु
क्रियापदानि
क्रियापदानि विभक्तिरूपं किं तत्र
क्रियापदानि द्वितीयविभक्ति बहुवचनं
बहुवचन उत्तमम् इत्युक्ते भवती क्रियापदानि परिवर्तयतु उत्तमम् अग्रिमम् कीदृशक्रियापदानि
दृश्यमानानि क्रियापदानि
दृश्यमानानि क्रियापदानि दृश्यमानानि इत्युक्ते
जो दिख रहा है वो
उत्तमं दृश्यमानानि क्रियापदानि परिवर्तयतु तदनन्तरं कथं परिवर्तयतु
भूतकालरूपेण परिवर्तयतु
भूतकालरूपेण भूतकालरूपेण परिवर्तयतु केन परिवर्तयतु
भूतकालरूपेण परिवर्तयतु तृतीया विभक्ति एकवचनम्
उत्तमम् उत्तमम् अपि च कुत्र
कथायां दृश्यमानानि क्रियापदानि भूतकालरूपेण परिवर्तयतु
कथायां स्थूलक्षरैः
स्थूलक्षरैः
इत्युक्ते क्रियापदानि परिवर्तयतु कीदृशक्रियापदानि दृश्यमानानि क्रियापदानि दृश्यमानानि अपि च स्थूलक्षरैः दृश्यमानानि ये ये पदानि स्थूलक्षरैः सन्ति ते ते दृश्यमानानि परिवर्तयन्तु अस्तु
जो बोर्ड में दिया हुआ है वो क्रियापदानि
उत्तमं भूतकालरूपेण भूतकालरूपेण इत्युक्ते
भूतकालरूपेण इत्युक्ते पास्ट टेन्स
उदाहरणं प्रथम उदाहरणं करोतु
यथा अस्ति आसीत्
आसीत् अस्ति आसीत् अस् धातुतः आसीत् गच्छति
गच्छति गतवान्
गतवान् अपि च आसीत् भेदः कः
आसीत् इति अकर्मकक्रियापदमस्ति गतवान् आसीत् इति लङ्लकारः अस्ति गतवान् इति त्वान्तपदमस्ति
त्वान्त वा
त्वान्त न
तवतु
तवतु
तवत् इत्युक्ते गतवान् तु क्रियापदं नास्ति कृदन्तपदमस्ति संज्ञा अपि अस्ति किन्तु कीदृशसंज्ञा कृदन्तपदं कृदन्त इत्युक्ते किम् क्रिया दर्शयति किन्तु स्वयं तु क्रियापदं नास्ति क्रिया सूचयति क्रिया क्रियायाः विषये वदति किन्तु स्वयं तु क्रियापदं नास्ति इत्युक्ते गतवान् तु क्रियापदं नास्ति आसीत् तु क्रियापदम् अस्ति क्रियापदम् इत्युक्ते किं तिङन्तं पदम् तिङन्तं पदम् इत्युक्ते क्रियापदं तिङ् इत्युक्ते किम् अन्तिम प्रत्यय आयाति यदि तिङ् प्रत्यय आयाति अन्ते तदनन्तरं
क्रियापदं निष्पन्नं भवति, किन्तु अत्र तु तिङ् नास्ति. अत्र किमभवत्? तव तु प्रत्यय आयाति. तव तु प्रत्यय योजयित्वा कृदन्तं कृदन्तपदम् अस्ति. इत्युक्ते गतवान् तु किमपि कार्यं सूचयति, किन्तु स्वयं तु क्रियापदं नास्ति. उत्तमम्. अवगतं भगिनी? सुधा
भगिनी,
उत्तमम्. अस्तु, अग्रिमं पठतु शैलजा भगिनी.
आं भगिनि. क्रीणाति क्रीतवान्, भवति अभवत्. क्रीणाति इस् लट्लकारशब्दः, तिङन्तपदम् अस्ति.
क्रीतवान्
अपि च क्रीतवान् भूतकाल प्रथमपुरुष एकवचनशब्दः अस्ति.
हा, क्रीतवान्, उत्तमं. तदेव भूतकालार्थक भूतकाल एकवचन, अपि च लिङ्गं किम्?
लिङ्गं लिङ्गभेदं नास्ति भगिनि.
लिङ्ग क्रियापदं नास्ति,
वचनशब्द भूतकाल अर्धपदेन भूतकालार्धपदं पदानि लिङ्गभेदं नास्ति, पुरुषभेदम् अस्ति.
अस्तु, अत्र क्रीतवान् तु पुंलिङ्गं किमपि इत्युक्ते सः क्रीतवान्, सा क्रीतवती,
सा क्रीतवान्,
साना भगिनी. इत्युक्ते रामः क्रीतवान्, सीता क्रीतवती. कृदन्तपदमस्ति अत्र, इत्युक्ते क्रियापदं नास्ति, स्वभावः भिन्नः.
क्रीणाति इस् स्पेशल् वर्ब् भगिनि.
क्रीणाति तु लट् रूपम् अस्ति.
हा, क्रीतवान्
क्रीधातुतः. क्रीधातु कस्य गणस्य आयाति? कस्य गणस्य अस्ति क्रीधातु? क्रियादि. क्रियादि, क्रियादि इत्युक्ते किं? नवमगणः. नवमगणः क्रियादिगणः क्रीधातु. क्रीधातु इत्युक्ते किं? डुक्रीय द्रव्यविनिमये. द्रव्यविनिमये इत्युक्ते किं? टु खरीदना. क्री क्रीधातुतः लट् रूपं किं? क्रीणाति.
क्रीणाति,
क्रीणाति. सर्वाणि रूपाणि पठतु एकवारं. क्रीधातुतः लट् रूपाणि एकवारं भगिनी.
आं भगिनि, भगिनी, बट् कृतवती इस् क्रियासूचकपदम् इसन्ट् इट् भगिनी?
हा, क्रीतवान् कृतवती इति तु ते तु तव तु प्रत्यय योजयित्वा निष्पन्नं भवति. इत्युक्ते प्रक्रिया भिन्नः. मूल मूल किं भेदः किम् इत्युक्ते क्रियापदं किं? क्रियापदं यदि अन्ते तिङ् प्रत्यय आयाति. तिङ् एकं तिङ् किं? तिङ् एकं प्रत्ययमस्ति, प्रत्याहार अस्ति. तस्य बहु किमपि तिङन्तं प्रत्याहार प्रत्ययाः सन्ति. इत्युक्ते किं? सीतः सीतः सन्ति, सीताथ, मी वहमः, ते सर्वे तिङ् प्रत्यय अस्ति. ते इति अन्ते, से इति द्वे, एव हे महे, यथा गच्छति, गच्छतः, गच्छन्ति, तीतः अन्ति, गच्छसि, गच्छथः, गच्छथ, सीथथ, देन् गच्छामि, गच्छाव, गच्छाम, मी व म, ते सर्वे तिङ् प्रत्ययाः सन्ति. अपि च आत्मनेपदीम् अस्ति चेत् किं?
भाषते भाषेते भाषन्ते ते इति अन्ते से इति द्वे ए वहे महे भाषे भाषावहे भाषामहे ते सर्वे तिङ् प्रत्ययाः सन्ति इति तु लट् रूपाणि सन्ति तदनन्तरं लङ् रूपाणि सन्ति तदनन्तरं सर्वाणि सर्वाः लकाराः तिङ् प्रत्यय योजयित्वा क्रियापदं क्रियापदानि निष्पन्नं भवति किन्तु कृदन्तपदम् इत्युक्ते किं कृदन्त इत्युक्ते किं मूलधातु प्लस् किमपि एकं प्रत्यय प्रक्रिया भिन्ना प्रक्रिया तु भिन्ना The method that is used to make a kriyapadam uses only ting pratyayas. Pratyaya ityukte suffix. That is called that creates kriyapadam. Kintu krudanta padam also indicate kriyas, but they are not technically kriyapadam. They are therefore called krudanta padam. They are special words that indicate a kriya. But they are themselves not kriyapadam. How are they formed? They do not utilize ting pratyayaha at the end. What do they utilize? Even though it indicates a kriya, it is not technically a kriya.
The word ends with the ti letter, but it is not a kriyapadam, isn't it, Bhagini?
Don't mix ti. If dhatu plus ting asti, tadanantaram kriyapadam asti, bhavati. Dhatu plus ting gives you kriyapadam. Dhatu plus non-ting pratyaya, that indicates a kriya, that is
kriya suchakam.
That is called a kridanta. It is not a kriyapadam. But it identifies the kriya. So for example, gatavan. Gatavan ityukte gam yogah tavatu creates the word gatavan. But to make a kriyapadam, you have to do gam plus ting. And then follow that prakriya to give you gachati. So the two are fundamentally different. You don't need to know exactly what is going on, but you need to understand that when it is Titaha Anti, for example, in ashtadhyayi.com, all the Rupani is given. For example, in Kriyadihi, Kreenati, Kreenitaha, Kreenanti, these are all, what are they? Kriyapadani. Because they are all going to be the proper Ting Pratyaya added. How do you know? Because they make the Lakara. They give you the Lakara Rupam. Pratyayas, simple pratyayas that are kridanta pratyayas, they do not create lakaras. They do not create kriyapadam. They simply create kridanta padam. And they have different swabhava. So for example, kreenati, you don't know if it is masculine or feminine, who is the kartrapadam. But in the kridanta padam gatavan, you know that the kartrapadam is pumlingam. So these are some fundamental differences, fundamental methods are different to create these sets of types of words. So what you need to know is, so far we have done lakaras, correct? We did lat lakar, predominantly we have done lat lakar, sometimes we have done lot lakar, sometimes we have done lang lakar. So all the 10 lakaras, if you follow the lakaras, that is all kriyapadani. But if you don't follow the lakara system, you don't follow the thing system, and you are getting knowledge of the kriya, that is a kridanta padam. They do not follow the same rules as lakara using padani are created. Abhagatama? Just know that they are
basically
fundamentally different. That's all you need to know at this point.
So, okay. So far there are three types, Bhagini. Lakara wala kriya padam and bhutakala rupani tavatu padani and this kriya suchaka padani.
No. Bhutakala artaka, so that is just a time frame, no? There are only two. One is shrunotu Bhagini. There are only
Lakara.
There are only two. One is Kriya Padani. How are they distributed through Lakaras?
According to Lakaras, yeah.
According to Lakaras. Then there are who? Kriya, Kridanta Pada. Kriya, Kridanta Padani. They do not use Lakara system. They do not use thing system. They use their own Pratyaya. That's all. That's all you need to know. Only two kinds. Within each of them, different time frames you can have. You can have the past time frame, you can have present time frame, you can have future time frame. That is up to you.
But only in Bhutakal we have another special kind, no Bhagini, like Patitavan, Patitavantaha.
Here they are introducing to you starting Bhutakal. So many Kridanta Padas are there. There are also future Kridanta Padas.
Oh.
Different Pratyaya will be there. Everyone uses it. So many, hundreds of pratyayas are there in Kridanta. It's just one they have introduced. The first one there, just like in Lakara, the first one we introduced was Lut. It doesn't mean Lut is its own category and the other Lakaras are their own category. No, it's the first one to introduce. That's all. So this is your first introduction to Kridanta. This is a Kridanta. That's all you need to know. And the only thing they are telling you is they are giving you similar information. Kridanta and Kriya, Lakara, Langa. Abhito, this is actually, Asit is Lang Lakar. It's not even Lat. Lang. Lang is to say Bhuta. That is why they have compared Asit to Gatavan and Asti to Asti and Gachati are both Lat. Asi is Lang. Gatavan is Kridanta. That's what you have to know. That's all. Even if in your head you know that they are different, that's enough for you. You need to recognize a Ting Pratyaya Padam. Ityukte kim? Asti, Gachati, Krinati, Bhavati. All these T ending ones. Also, sometimes they don't end in T. For example, Gachami. It doesn't end in T, but still you know it is a Tingantam Padam. Avagatam?
Right. Aam Bhagini.
Astu. Sarvani Rupani Patatu Ekvaram Kri Dhatutaha Lat.
Kri. Kri. Aam Bhagini. Ganaha Krayadhi Ganaha. Krinati sakarmaka kriya padam asti. Krinati krinitaha krinanti. Krinasi krinitaha krinita. Krinami krinivaha krinimaha. Latrupam asti.
Te sarve latrupani asti.
Latrupani.
Sudha Bhagini, lang rupani patatu ekvaram.
Aam Bhagini. Akrinat, akrinitam,
akrinitam, dirghasti, akrinitam,
akrinitam, akrinam, akrinan, akrinaha, akrinitam, akrinita, akrinam, akriniva, akrinima.
Uttamam. So, akrini akrinat tavatu pratyaya asti chet
kritavan
kritavan apicha kritavati apicha kritavat napumsakalingam asti chet kritavat
avagatam तव तु प्रत्यय पुरुषभेदः नास्ति, लिङ्गभेद वचनभेदः अस्ति.
लिङ्गभेद वचनभेदः अस्ति. आं भगिनि.
हा, वचनभेदः अस्ति. वचनभेदः अस्ति चेत् अस्तु, अक्रीणात् क्रीतवान् भवति, अक्रीणीतां किम्?
अक्रीणीतां
क्रीतवन्तौ.
क्रीतवन्तौ द्विवचने क्रीतवन्तौ.
क्रीतवन्तौ वचनभेदः अस्ति. अक्रीडन् क्रीतवन्तः. अवगतं? क्रीतवन्तः तु कृदन्तपदम्. अर्थः किम्? अक्रीडन्. किन्तु वयं तु जानीमः क्रीतवन्तः तु इत्युक्ते कर्तृपदं किम्? पुंलिङ्गं पदम्. अवगतम्?
आं भगिनि.
अस्तु, गम् धातुतः एकवारं पश्यतु. गम् धातुतः पठतु एकवारं सुधा भगिनी, शैलजा भगिनी. गम् धातु.
आं भगिनि. गच्छति. गतौ गणः द्वादिगणः अस्ति, सकर्मकक्रियापदं. गच्छति.
एकवारं वदतु. गम्नु गतौ.
गतौ. गम्रु 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 गतौ.
हा, नासिका अस्ति. गम्रु गतौ.
गम्रु गम्रु
नासि. किञ्चित् नासिका योजयित्वा वदतु भगिनि. गम्रु गतौ.
गम्नु रण भगिनि. बण्डी रा वि काल् इट् इन् तेलुगु. इस् दट् रैट् भगिनि?
किन्तु चन्द्रबिन्दु. चन्द्रबिन्दु.
आं भगिनि. गम्रुं गतौ.
गम्रु किं? गम्रु उपदेशिकरूपम् इत्युक्ते यथा पाणिनी भगवान् दत्तं तत्र तदेव अत्र दत्तं. गम्रु
गम्रु. आं भगिनि.
गतौ. हि डिडन्ट् पाणिनी भगवान् डिडन्ट् रैट् गम्. हि डिडन्ट् से गम् इस् द धातु. हि रोट् गम्रु इस् द धातु. फ्रोम् गम्रु वी हेव् क्रियेटेड् गम्. हौ डिड् वी डू इट्? वी क्लीन्ड् अप् द पेकेज्. इट्स् अ पेकेजिङ्ग् मटेरियल्. गम्रु. वै इस् इट् काल्ड् पेकेजिङ्ग् मटेरियल्? बिकास् देट् हेज् स्पेसिफिक् इन्स्ट्रक्षन्स् आन् हौ टु यूस् गम्. In that gamru sound is the instruction of how to deal with gum. That is why we have to stick to that. We have to know what that packaging is. Although we discard it, we should know the instructions. Very specific instructions are there in that. We'll learn later. Latlakara rupani patatu.
Gacchati, gacchataha, gacchanti, gacchasi, gacchataha. गच्छता. गच्छामि. गच्छावः. गच्छामः.
अधुना लट् रूपाणि
पठति. लङ् आं भगिनि. लङ् आगच्छन्. आगच्छत. आगच्छत्
भगिनि.
अगच्छत्. अगच्छत्. अगच्छताम्. अगच्छन्. अगच्छः. आगच्छतम्. आगच्छत. अगच्छतम्. अगच्छतम्. अगच्छत. अगच्छतम्. अगच्छत. अगच्छाव.
न न न भगिनि, समीकरोतु. अगच्छम्.
अगच्छम्. अगच्छाव. अगच्छाम. अगच्छाम.
पुनः सर्वाणि पठतु.
आं भगिनि. अगच्छत्. अगच्छताम्. अगच्छन्. अगच्छः. अगच्छतम्. अगच्छत. अगच्छतम्. अगच्छाव अगच्छाम
उत्तमपुरुष एकवचनरूपं पठतु
उत्तमपुरुष एकवचनम् अगच्छम् अगच्छम्
अगच्छाव अगच्छाम
अगच्छम् अगच्छाव अगच्छम् अगच्छाम
अगच्छत् अस्ति चेत् कृदन्तरूपं किं तत्र दत्तं भगिनि
अगच्छवान् अगच्छवान्
न कृदन्तरूपं दत्तमेव चत्वारिंशत्
कृदन्तरूपं
चत्वारिंशत् पुटतमे पुटे अभ्यासपुस्तके दत्तमेव एकवारं पठतु कृदन्तरूपं किम्
चत्वारिंशत् पुटसङ्ख्या भगिनि
तमे पुटे पठतु गतवान् 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 किं गतवान् तु तव
गतवान् तव तु पदम् एक प्रथमपुरुषे एकवचनशब्दः
न भगिनि तव तु प्रत्यय पदं तु न प्रत्यय इत्युक्ते सफिक्स्
या
तव तु प्रत्यय योजयित्वा निष्पन्नं भवति गतवान् गतवान् इत्युक्ते किम् अगच्छत् अपि च गतवान् समानार्थकपदं पदे अगच्छताम् अगच्छताम् अस्ति चेत् कृदन्तपदं किं तव तु प्रत्यय
गतवान्
गतवन्तौ अगच्छन् बहुवचनरूपम् अस्ति चेत् कृदन्तपदं किं गतवन्तः इत्युक्ते किं गतवन्तौ कृदन्तरूपाणि लङ्रूपाणि अगच्छत् अगच्छताम् अगच्छन् अधुना तु वचनभेद अस्ति एव किन्तु कृदन्तरूपाणि कृदन्त रूपेषु पुरुषभेद नास्ति पुरुषभेद नास्ति इत्युक्ते किम् अगच्छत् अपि च गतवान्
सः अगच्छत् हां भगिनी
अगच्छत् त्वम् अगच्छत्
त्वम् अगच्छत्
अहं न त्वम् अगच्छत् कृदन्तरूपं भगिनि इत्युक्ते सः गतवान् त्वं
गतवान् अहं गतवान् सो
तदेव
ते गतवन्तः तौ गतवन्तौ
न
सो वचनं
हा तौ गतवन्तौ ते गतवन्तः मध्यमपुरुष यूयं
गतवन्तौ वयं गतवन्तः
यूयं गतवन्तः वयं गतवन्तः अपि च द्विवचने
तौ गतवन्तौ ते गतवन्तः
अस्तु द्विवचनरूपाणि वदतु तौ गतवन्तौ युवां
आं भगिनि तौ गतवन्तौ युवां गतवन् यूयं नो भगिनि त्वं गतवान् युवां गतवन्तौ यूयं गतवन्तः
तौ गतवन्तौ
ते गतवन्तः
न भगिनि द्विवचनरूपाणि वदतु एकवारम्
आं भगिनि तौ गतवन्तौ यूयं गतवन्तः
युवां
भगिनि युवाम् इस् मध्यमपुरुष द्विवचनं वो नो भगिनि
अपि तदेव अहं वदामि न द्विवचनरूपाणि वदतु इत्युक्ते किम् त्रीणि रूपाणि सन्ति, द्विवचने त्रीणि रूपाणि सन्ति.
मध्यमपुरुष वा भगिनि?
वदतु.
मध्यमपुरुषः आम्. त्वं गतवान्, युवां गतवन्तौ, यूयं गतवन्तः.
उत्तमम्. अधुना केवल द्विवचनरूपाणि वदतु इति.
प्रथमपुरुष वा मध्यमपुरुष वा भगिनि?
सर्वाणि पुरुष,
सर्वाणि सर्वाणि पुरुष. आं भगिनि, तौ गतवन्तौ, युवां गतवन्तौ, आवां गतवन्तौ.
तदेव उत्तमं. बहुवचनरूपाणि वदतु.
ते गतवन्तः, यूयं गतवन्तः, वयं गतवन्तः.
उत्तमम्. एकवचनरूपं?
सः गतवान्, त्वं गतवान्, अहं गतवान्.
तदेव अवगतम्. अधुना
आं भगिनि,
वचनरूपाणि भेद सन्ति किन्तु पुरुष भेद नास्ति. रूपे पुरुषभेद नास्ति इति अहं वदामि. उत्तमम्. उत्तमम्. अस्तु, भू धातुतः सुधा भगिनी एकवारं वदतु. पापजी अभी आवाज आई आ रही आपके?
हाँ आ रही बेटा.
हाँ अभी आवाज आई आपकी. सबसे तो आवाज ही नहीं आ रही थी.
नहीं, हमने ऑफ कर दिया था माइक्रोफोन.
ओ अस्तु अस्तु. पापा जी प्रणाम. अस्तु, अभी तक जब बात
अभी
हाँ अवगतम सर्वम पापा जी.
हाँ
अस्तु. भू धातुतः भू गणसंख्या किं सुधा भगिनी?
भूआदिगणः. एक प्रथमगणः.
उत्तमम्. उत्तमम्. लट् रूपाणि वदतु शीघ्रं.
लट् रूपाणि भवति. भवति इति लट् रूपं. भवति, भवन्तः, भवन्तः, भवन्तौ.
भवति, भवतः,
भवन्तः.
न, भवति, भवतः, भवन्ति.
भवति, भवन्तः, भवतः, भवन्ति.
यथा गच्छति भगिनि.
आम् भगिनि, सोरि अहं विस्मरामि. भवसि, भवति,
भवसि, भवतः, भवतः. वदतु भगिनि. भगिनि वदतु.
हां भगिनि, भवसि, भवतः, भवतः, भवामि, भवावः, भवामः.
उत्तमम्. अस्तु, अधुना कृदन्तरूपाणि वदतु.
कृदन्तवचने
एकवचने अस्ति चेत् किम्?
भवति
भूतवान्.
भूतवान्. ओके.
रामः भूतवान्.
भूतवान्.
भूतवान् इत्युक्ते रामः भूतवान्. त्वं
त्वं भूतवान्. अहं भूतवान्.
अहं भूतवान्. द्विवचने?
द्विवचने तौ भूतवन्तौ. युवां भूतवन्तौ. आवां भूतवन्तौ. भूतवन्तौ.
द्विवचनरूपाणि?
ते भूतवन्तः, यूयं भूतवन्तः, वयं भूतवन्तः.
उत्तमं. भूतवन्तः, भूतवान्, भूतवन्तौ, भूतवन्तः,
न अधुना लङ्रूपाणि वदतु
लङ्रूपाणि अभवत् अभवताम् अभवन् अभवः अभवतम् 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 अभवत् 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 अभवम् अभवाव अभवाम
अभवाव अभवाम उत्तमम् इत्युक्ते अभवत् इत्युक्ते किं कृदन्तरूपं किं
भूतवान्
भूतवान् अभवाम
अभवाम भूतवन्तः
भूतवन्तः तदेव अभवतम्
अभवतं भूतवन्तौ
भूतवन्तौ तदेव भूसत्तायाम् एकवारं वदतु भूसत्तायां सत्तायाम् इत्युक्ते किम्
सत्तायां
टु बी इत्युक्ते सत्तायां तु सप्तमी अस्ति सत्तायाम् इन् रियालिटि भू इत्युक्ते इन् रियालिटि सत् किं सत्तायाम् इत्युक्ते किं
सत्यं
सत्यं ट्रूत् इन् ट्रूत् इन् रियालिटि उत्तमं तदेव अस्तु अधुना एकमेकं स्थूलक्षरैः पदैः स्वीकृत्य तस्य परिवर्तनं कुर्मः अवगतम् अभ्यासपुस्तके पुटसङ्ख्या 44 किं दत्तं कथायां स्थूलक्षरैः दृश्यमानानि क्रियापदानि भूतकालरूपेण परिवर्तयतु इति अस्तु प्रथम अस्ति 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 तु वयं कृतवन्तः गच्छति अपि कृतवन्तः क्रीणाति अपि कृतवन्तः तदनन्तरं भवति भूतवान् अपि कृतवन्तः उपविशति उपविशति अधुना लङ्रूपं किम्
लङ्रूपम् उपविशत्
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 किन्तु उपविशत् लङ्रूपम् उपाविशत् भवति किमर्थम् उपाविशत् उप तु उपसर्ग अस्ति तदनन्तरम् अविशत् आयाति विश् धातुतः विशत् आयाति अविशत् भवति लङ्रूपं किञ्चित् क्लिष्टजाता किन्तु अत्र किं कुर्मः कृदन्तरूपं वदतु एव उपविशति इत्युक्ते कृदन्तरूपम्
उपविष्टवान्
उपविष्टवन्तौ उपविष्टवन्तः अपि च स्त्रीलिङ्गरूपम्
उपविष्टवती उपविष्टवन्तौ उपविष्टवन्तः
उपविष्टवती उपविष्टवत्यौ उपविष्टवत्यः न वदतु
उपविष्टवती उपविष्टवत्यौ उपविष्टवत्यः
वत्यः धन्यवादः अस्तु पपजि स्थापयति स्थापयति
स्थापयति
इत्युक्ते धातु किं था धातु कृदन्तरूपं किं स्थितवान्
स्थापयितवान् स्थापयितवान्
स्थापयितवान् अपि च स्थापयितवन्तौ
स्थापयितवन्तः
स्था धातुतः आयाति कुत्र दत्तं सर्वाणि रूपाणि पुटसङ्ख्या किं तव तु रूपाणि कुत्र दत्तानि अष्टत्रिंशत्तमे पुटे अभ्यासपुस्तके अष्टत्रिंशत्तमे पुटे रूपाणि दत्तानि तदेव तदेव करोति करोति पापाजि वदतु करोति भूतकालरूपाणि कानि
अकरोत्
अकरोत् तु लङ् रूपम् अस्ति उत्तमम् अकरोत् किन्तु कृदन्तरूपं कृतवान्
कृतवान्
कृतवान् तदनन्तरं द्विवचने कृतवन्तौ
कृतवन्तौ कृतवन्तः
कृतवन्तः तदेव धन्यवादः पापाजि
भगिनि एकः प्रश्नः स्थापयति कृदन्तरूपं या न आयाति न स्थापितवान् इति
हा या तु यत् या तु स्थापयति इत्युक्ते कृदन्तरूपं तु केवल धातु तदनन्तरं तावतु किन्तु अत्र एकं विशिष्टकार्यम् अभवत् अत्र तु पुगागमः भवति तत्र एकं विशिष्टकार्यं भगिनि बहु किमपि अभवत् तत्र अधुना तु त्यजतु पकार कथम् आयाति एकः प्रश्न उदेति स्थापितवान् कथं पि आयाति एकं विशिष्टकार्यम् अस्ति तत्र पुगागमः इति स्थापितवन्तः स्थापितवान् स्थापितवान् स्थापितवती स्थापितवन्तः अस्तु उत्तमम् अस्तु करोति अपि अभवत् अधुना सलजा भगिनी सन्ति
आं भगिनि
सन्ति कृदन्तरूपं किम्
सन्ति
सन्ति कृदन्तरूपं किम् धातु किं प्रथम तु वदतु धातु
अस्धातु अस्धातु सः अस्ति बहुवचन शब्दः अस्ति सन्ति अस्तु कृदन्तपदम् आसन् आसन्
आसन् तु लङ् रूपम् अस्ति तत्तु सत्यम् आसन् आसन् तु लङ् रूपम् अस्ति आसीत् इत्युक्ते भूतवान् भूतवती
आसीत् इस् भूतकालं प्रथमपुरुषशब्दवत् एकवचनशब्दः अस्ति आसीत् सन्ति बहुवचनं भूतकालरूपम् इस् आसन् सो कृदन्तपदं ट्रैङ्ग् टु फिगर् इट् औट्
अधुना तु समानार्थकपदं किम् इति
आं भगिनि
इत्युक्ते किं समानार्थक तु
लङ्गरूप भूतकाल आसीत्
आसीत् आसीत् तु लङ् रूपम्
आसीत् लङ् रूपम् आसन् इस् आसीन् आस्ताम् आसन् लङ् रूपं भवति
अस् धातुतः अपि भूतवान् एव निष्पन्नं भवति भगिनि अस् धातुतः लङ् अकृदन्तरूपं तु भूतवान्
भूतवान् भूतवन्तौ भूतवन्तः सो अस्मान् अस्वन्तौ अस्वन्तः सन्ति नो भगिनि
कुत्र आयाति भगिनि अस्वन्तौ कुत्र अस्ति अस्वन्त न भगिनि अस् धातुतः अस् धातु तु अदादिगणे अस्ति अस् धातुतः अपि भूतवान् एव कृदन्तपदम् अस्ति भगिनि अन्य किमपि कृदन्तपदं नास्ति तत्र संस्कृतभाषायां संस्कृतभाषायाम् अस् धातुतः कृदन्तपदमपि भूतवान् एव इति अहं वदामि भगिनि अस्तवान् अपि च किमपि नास्ति भ्रम मास्तु इत्युक्ते किं भूतवान् एव धातुतः भूतवान् उत्तमम् अस्तु अग्रिमं सुधा भगिनी आगच्छति आगच्छति सुधा भगिनी अस्ति वा
अस्ति भगिनि अस्ति भगिनि आगच्छति आगतवान् आगतवन्तौ आगतवन्तः
आगतवन्तौ आगतवन्तः उत्तमं पश्यति पापजी पश्यति
पश्यति
कृदन्तरूपं किम् पश्यति
पश्यत्
सो पश् धातु किं दृश् दृश्
दृश्
अस्ति सो दृष्टवान्
दृष्टवन्तौ दृष्टवन्तः
दृष्टवान् दृष्टवन्तौ दृष्टवन्तः धातु तु दृश् एव पश् धातु नास्ति किञ्चित् भ्रम जातः तत्र किन्तु दृष्टवान् दृष्टवन्तौ दृष्टवन्तः बहु किमपि सूत्राणि सन्ति तत्र पाणिनिमहोदयेन दत्तं बहु किमपि परिवर्तनम् अभवत् तत्र किमर्थं सर्वं सर्वाणि रूपाणि दृष्ट्वा एव पाणिनि भगवान् सम्पूर्णव्याकरणं रचितवान् दृष्ट्वा एव सम्पूर्णसंस्कृतभाषा दृष्ट्वा इत्युक्ते अफ्गानिस्तान् अधुना तु अफ्गानिस्तान् अस्ति किन्तु खान्दहार् अपि मध्यभारत अपि दक्षिणभारत अपि च पूर्व उत्तरपूर्वीभारत अपि सर्वं पाणिनिमहोदया सर्वं सर्वत्र गतवान् तदनन्तरं सर्वाणि रूपाणि दृष्ट्वा एव सम्पूर्णव्याकरणं रचितवान् तदेव सः सूत्राणि रचितवान् सो दृश् धातुतः पश् भवति इति अभवत् अधुना तु सूत्रेण वयं कुर्मः तदेव अस्तु कस्य क्रमः अधुना सुधा भगिनी वा कस्य क्रमः उद्घाटयति
उद्घाटयति
उद्घाटयति वदतु
उद्घाटितवान्
उद्घाटितवन्तः उत्तमम् अधुना शैलजा भगिनी गृह्णाति
भगिनि
तव तु रूपं किम् ऊहां करोतु
तव तु रूपं गृहीतवान् गृहीतवन्तः
सुन्दरं तदेव उत्तमं पपजी धारयति पपजी धारयति
अच्छा भारयति
न धा धा कृदन्तरूपं किम् इत्युक्ते मूलधातुरूपं किं
धृधातु
सो कृदन्तरूपं किं धृतवान् धृतवान् इति उत्तमं सुधा भगिनी गच्छति उपविशति तु वयं कुर्मः पश्यन्ति इच्छन्ति
इच्छितवन्तः
इष्टवन्तः
इष्टवन्तः
किञ्चित् भिन्नजातरूपाणि एकवारं वयं कृत्वा तदनन्तरं किञ्चित् फेमिलियारिटि आयाति इष्टवान् इष्टवन्तौ इष्टवन्तः उत्तमम् अधुना सर्वाणि रूपाणि आयाति अस्तु उपविशति शैलजा भगिनी करोतु उपविशति
आं भगिनि उपविशति
उपविष्ट कथं जानीमः अष्टत्रिंशत्तमे पुटे बहु किमपि रूपाणि दत्तानि उपविशति इति तु दत्तम्
उपविष्टवान् उपविष्टन्तौ उपविष्टन्तः
उपविष्टवान् तदनन्तरम् उपविष्टवान्
उपविशन्तः
न भगिनि उपविष्टवान् उपविष्टवन्तौ
आं भगिनि उपविष्टवान् उपविष्टवन्तौ
उपविष्टवन्तः तदेव उपविष्टवान् उपविष्टवन्तौ उपविष्टवन्तः उत्तमं तदनन्तरं पप्पजी अग्रिमं किं भूतवान् भवति अस्ति चेत् पप्पजी वदतु भवति कृदन्तरूपं किं कृदन्तरूपं भवति
वदतु
भवति अस्ति चेत् धातु किं
भू भवति
सो
भूतवान्
तदेव भूतवान् अपि च पश्यन्ति एकवारं वदतु पापाजी.
पश्यन्ति
कृदन्तरूपाणि कानि? दृश् धातुतः आयाति. दृष्टवान्
दृष्टवन्तः.
तदेव सुन्दरं. धन्यवादः. अस्तु, अधुना सुधा भगिनी दर्शयति. स्थूलरूपैः दर्शयति दत्तम्. अधुना किं
दर्शयति? दर्शितवान्.
दर्शयति दृश्यायति. एक दृष्टवान् तु अहं जानामि.
दृष्टवान्
तु
पश्यति.
किन्तु अत्र अधुना तु
दर्शयति.
दर्शयितवान् दर्शयितवान् दर्श इति अहं मन्ये. दर्शयितवान् वदतु.
दर्शयितवान् दर्शयितवन्तः दर्शयितवन्तौ
वन्तौ दर्शयितवन्तः दर्शयितवन्तः. अस्तु अस्तु, धन्यवादः. शैलजा भगिनी क्षिपति.
क्षिपति भगिनि
क्षिपति किं
क्षिपति? क्षिप्तवान् क्षिप्तवन्तौ क्षिप्तवन्तः. दिस् लुक्स् ईज़ी भगिनि. क्षिपति
क्षिपति क्षिप्तवन्तौ क्षिप्तवन्तः. उत्तमम्. अधुना किं जानाति? जानाति वदतु. जानाति कोऽपि?
आर् यु आस्किङ्ग् मी भगिनि?
कोऽपि वदतु. जानाति
जानाति जानाति. ज्ञातिवान्
ज्ञातवान्
ज्ञातवन्तौ ज्ञातवन्तः.
ज्ञातवान् ज्ञातवन्तौ ज्ञातवन्तः. उत्तमम्. अपि च सङ्गृह्णाति. सङ्गृह्णाति सुधा भगिनी? तदेव सुन्दरं. सङ्गृहीतवान् सङ्गृहीतवन्तौ सङ्गृहीतवन्तः. उत्तमम्. अधुना किं कुर्मः? अष्टत्रिंशत्तमे पुटे सर्वाणि रूपाणि एकवारं पुनः पठामः. अस्तु, पापाजी आरम्भं करोतु. अष्टत्रिंशत्तमे पुटे पठति पठति
पठति पठितवान् पठितवन्तः पठितवती पठितवत्यः.
इत्युक्ते एकवचन बहुवचन दत्तं, द्विवचनरूपं न दत्तं. किन्तु वयं तु वदामः. एकवारं पुनः सर्वाणि रूपाणि वदतु.
पठितवान् पठितवन्तः
पठितवन्तौ पठितवन्तः. वदतु. अपि च स्त्रीलिङ्गरूप स्त्रीलिङ्गे अस्ति चेत्
पठितवती पठितवतौ
वत्यौ वत्यौ
पठितवत्यौ पठितवत्यः.
तदेव पठितवत्यौ पठितवत्यः. अग्रिमं पठतु पापाजी.
पठितवान् पठितवान् पठितवौ
पठितवन्तौ
पठितवन्तौ पठितवन्तः.
स्त्रीलिङ्गे
पठितवती पठितवतौ पठितवत्यौ पतितवत्या
उत्तमम् उत्तमं पतितवत्यौ पतितवत्यः उत्तमं सुधा भगिनी
भगिनी वदति उक्तवान् उक्तवन्तौ उक्तवन्तः उक्तवती उक्तवत्यौ उक्तवत्यः
उत्तमम् पिबति अपि करोतु
पिबति पीतवान् पीतवन्तौ पीतवन्तः पीतवती पीतवत्यौ पीतवत्यः
पिबति पीतवान् इति भवत् अभवत्
दीर्घ
दीर्घ अभवत् उत्तमम् अग्रिमं करोतु सरिजा भगिनी
आं भगिनि लिखति लिखितवान् लिखितवन्तौ लिखितवन्तः लिखितवती लिखितवत्यौ लिखितवत्यः
लिखितवत्यः अग्रिममपि करोतु
नयति नीतवान् नीतवन्तः नीतवन्तौ नीतवन्तः नीतवती नीतवत्यौ नीतवत्यः
तदेव सुन्दरं पपजी पश्यति
द्रष्टवान् द्रष्टवन्तौ द्रष्टवन्तः
अपि च स्त्रीलिङ्गरूपे
द्रष्टवती द्रष्टवत्यौ द्रष्टवत्यः
तदेव सुन्दरम् अपि च अग्रिमं करोतु पृच्छति
पृच्छति पृच्छति पृच्छतवान् पृष्टवान् पृष्टवन्तौ पृष्टवन्तः पृष्टवान् पृष्टवती पृष्टवत्यौ पृष्टवत्यः
उत्तमम् उत्तमं सुधा भगिनी
पृच्छति पृष्टवान् पृष्टवन्तौ पृष्टवन्तः पृष्टवती पृष्टवत्यौ पृष्टवत्यः
तत्तु पापजी कृतवान् अस्तु अग्रिमं करोतु
त्यजति त्यजति त्यक्तवान् त्यक्तवत्यौ त्यक्तवन्तौ त्यक्तवन्तः त्यक्तवती त्यक्तवत्यौ त्यक्तवत्यः
उत्तमम् उत्तमम् अग्रिमं
खादति खादितवान् खादितवन्तौ खादितवन्तः खादितवती खादितवत्यौ खादितवत्यः
उत्तमम् उत्तमं शैलजा भगिनी जानाति
आं भगिनि जानाति ज्ञातवान् ज्ञातवत्यौ ज्ञातवत्यः ज्ञातवान् ज्ञातवन्त्यौ
वन्तौ
ज्ञातवन्तौ ज्ञातवन्तः ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः
उत्तमं करोति
करोति कृतवान् कृतवान् कृतवत्यौ
न कृतवान्
कृतवान् कृतवन्त्यौ
न भगिनी पुंलिङ्ग् अस्ति चेत् कृतवान्
भगिनि कृतवत्यौ कृतवन्त्यौ आं भगिनि सोरि
शृणोतु भगिनि शृणोतु पुंलिङ्गमस्ति चेत् कृतवान् कृतवन्तौ पठितवान् पठितवन्तौ यकार न आयाति तत्र यकार कुत्र
आं भगिनि स्त्रीलिङ्ग अस्ति चेत् यकार अस्ति
अधुना तु न
आं भगिनि
वदतु कृत् अस्ति
सारि भगिनि कृतवन्तः कृतवती कृतवत्यौ कृतवत्यः
उत्तमम् उत्तमं पापजी शृणोति
श्रुतवान् श्रुतवन्तः
श्रुतवान् द्विवचने
श्रुतवन्तौ श्रुतवन्तः
उत्तमं
श्रुतवान् श्रुतवन्तौ
स्त्रीलिङ्गे
श्रुतवती श्रुतवत्यौ श्रुतवत्यः
सुन्दरम् अग्रिमं ददाति
दत्त दत्त दत्तवान् दत्तवानौ
दत्तवान् यदि पठितवान् पठितवन्तौ भवत् दत्तवान्
दत्तवन्तौ दत्तवन्तः दत्तवती दत्तवत्यः
द्विवचने दत्तवती
दत्तवती दत्तवतौ
वत्यौ वत्यौ
दत्तवत्यौ दत्तवत्यः
उत्तमम् उत्तमम् सुधा भगिनी
उत्तिष्ठति उत्थितवान् उत्थितवन्तौ उत्थितवन्तः उत्थितवती उत्थितवत्यः उत्थितवत्यौ उत्थितवत्यः उपविशति उपविष्टवान् उपविष्टवन्तौ उपविष्टवन्तः उपविष्टवती उपविष्टवत्यौ उपविष्टवत्यः
उत्तमं शैलजा भगिनी
आं भगिनि स्थापयति स्थापितवान् स्थापितवन्तौ स्थापितवन्तः स्थापितवती स्थापितवत्यौ स्थापितवत्यः गृहाति गृहीतवान् गृह्णाति सोरि भगिनि आम् गृह्णाति गृहीतवान् गृहन्तौ गृहन्तः
पुनः वदतु गृहीतवान्
गृहीतवान् गृहीतवान् गृहन्तौ गृहीतवन्तौ गृहीतवन्तः
उत्तमं स्त्रीलिङ्गे
गृहीतवती गृहीतवत्यौ गृहीतवत्यः
तदेव उत्तमं पपजी रोदिति
रोदिति रुदित रुदितवान् रुदित रुदितवान् रुदितवन्तौ रुदितवन्तः
उत्तमं
रुदितवती रुदितवत्यौ रुदितवत्यः
शक्नोति
शक्नोति शक्नोति शक्नोत् शक्तः शक्नोति शक्त शक्तौ
शक्त कृदन्तरूपं रुदित् रुदितवान् भवति शक्त किम् अभवत्
शक्तवान् शक्तवन्तौ शक्तवन्तः
स्त्रीलिङ्गे
शक्तवती शक्तवन् शक्तवत्यौ शक्तवत्यः
उत्तमम् उत्तमं हा शैलजा भगिनी अग्रिमं पठतु
आं भगिनि भवती भवती इट्स् आलरेडि देर् हियर् भगिनि अभवत्
अभवत् अभवन् किन्तु
अभवन्
ते रूपाणि कानि
सोरि भगिनि
कीदृशरूपाणि अभवत्
भूतकालरूपाणि अभवत् कृदन्तरूपाणि
अभवत् कीदृशपदं भगिनि
अभवत् पुल्लिङ्गशब्दः एकवचनपदं भूतकालपदं
न न न न कीदृशपदं सुधा भगिनी
लङ्रूपमस्ति
अत्र तु कृदन्त नास्ति भगिनि क्रियापदम्
आम् आं भगिनि क्रियापदं
भवति अभवत् इत्युक्ते भूतवान् अपि कृदन्तपदं
भूतवान् कृदन्तपदम् अस्ति आम्
अत्र किम् अत्र लङ् लकाररूपाणि दत्तानि
भवति हियर् इस् हेपन् टु बि देर् इस् इट् रैट् भगिनि
भू भू भू
भू धातुः
भवति किन्तु अत्र तु लङ् लकाररूपाणि दत्तानि, नास्ति तत्र अभवत् कृदन्त अस्ति चेत् किम्
भूतवान् अभवत् वा भगिनि भवति वा
हा भवति अस्ति चेत्
भवति अस्ति चेत् भूतवान् भूतवन्तौ भूतवन्तः
अपि च स्त्रीलिङ्गे
स्त्रीलिङ्ग अस्ति चेत् भूतवती भूतवती भूतवत्यौ भूतवत्यः
उत्तमं तदेव तदेव अस्तु हा सुधा भगिनी एकवारं पुनः अस्ति अत्र अग्रिमकोष्टके एकं कोष्टकं दत्तं सर्वाणि रूपाणि वदतु भगिनी द्विवचने अपि वदतु
आं भगिनि अस्ति स्तः सन्ति अस्ति असीत असीतः असीत अस्मि असावः असामः
कुत्र भवति तत् रूपाणि करोतु
अस्ति
सहस्तः
अस्ति सः सन्ति
तदनन्तरं करोतु
अस्ति सः सन्ति प्रथमतया सर्वाणि लट् रूपाणि वदामि वा
हा लट् रूपाणि वदतु भगिनि अस्ति स्तः सन्ति तु कीदृशरूपाणि प्रथमपुरुष
एकवचन द्विवचन लट् रूपाणि
लट् हा अधुना मध्यमपुरुष
अस्ति स्तः स्थ
तदनन्तरम्
अस्मि स्वः स्मः
उत्तमम् उत्तमम् अधुना भूतकालार्थक अस्ति चेत् आसीत्
आसीत् आसीत् आस्ताम् आसन् मध्यमपुरुषः प्रथम मध्यमपुरुष एकवचन आसीः आस्तम् आस्त उत्तमपुरुष एकवचनं आसम् आस्व आस्म
तदेव सुन्दरं सुन्दरम् अस्तु बहु किमपि अभवत् अद्य एकवार पुनस्मरणार्थं पुनः पठतु यथाशक्यं करोतु एकवारम् अस्तु उत्तमम् उत्तमं पापजी अन्तिम शान्तिपाठ एकवारं वदतु
हेलो
हाँ पापा हाँ जी
आवाज आ रही है
हाँ पापा
आवाज हमारी आवाज आ रही है
हाँ पापा जी बता अच्छा। तो
ओ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
सर्वं कृष्णार्पणमस्तु नमस्कारः सर्वेभ्यः नमो नमः
नमो नमः
धन्यवादः भगिनी
धन्यवादः
भगिनी